इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्री नरेन्द्रमोदी भौमवासरादारभ्य द्विदिवसीयायां राजकीय यात्रायां मॉरिशस देशं यास्यति। विदेश सचिवेन विक्रम मिश्री इत्यनेन नवदिल्ल्यां वार्ताहराः संसूचिताः यत् पञ्चदशोत्तर द्विसहस्रतम वर्षानन्तरं प्रधानमन्त्रिणः नरेन्द्रमोदिनः इयं प्रथमा यात्रा वर्तते इति। तेनोक्तं यत् मॉरिशस इति राष्ट्रेण सह भारतस्य सम्बन्धाः संयुक्त ऐतिह्येन सहित सुदृढ संस्कृत्याः जनानां पारस्परिक दृढ सम्बन्ध सम्बलिताश्च सन्तीति। श्री मिश्री इत्यनेन प्रोक्तं यत् मॉरिशस देशः हिन्द महासागर क्षेत्रे भारतस्य प्रमुख सहयोगिषि अन्यतमोऽस्तीति। संसदः व्ययाय संकल्प सत्रस्य द्वितीयः भागः श्वस्तनादारप्स्यते। अप्रैल मासस्य चतुर्थं दिनांकं यावत् प्रचाल्यमानेऽस्मिन् सत्रे विंशतिः उपवेशनानि भविष्यन्ति। सत्रावधौ अस्मै चलायमानाय वर्षसत्राय अपेक्षितेभ्यः अनुदानेभ्यः सम्बन्धिते च विनियोग विधेयके चर्चा मतदानञ्च भविष्यतः। एतदतिरिच्य संशोधनात्मके वित्तकोषीय विधौ तटीय नौवहन विधेयके चतुर्विंशत्यधिक द्विसहस्रात्मक त्रिभुवन सहकारी विश्वविद्यालय आदिषु विधेयकेष्वपि चर्चा सहित विधेयकानाम् अवलम्बनस्य सम्भावना अस्ति। भारतेन ऑस्ट्रेलिया संयुक्त अरब अमीरात स्विट्जरलैण्ड नॉर्वे आदिभिः सहित प्रमुख राष्ट्रेभ्यः प्रख्यापितेषु टैरिफ इत्याख्येषु कराधानेषु आनुपातिकरूपेण पर्याप्तरूपेण च अपचितिः कृतास्ति। निर्णयोऽयं सद्यः सम्पन्ने पारस्परिकरूपेण लाभदायके द्विपक्षीये वाणिज्यिक सन्धिपत्रे समुट्टंकितः आसीत्। सूत्राणि संकेतयन्ति यत् अन्यैः सह सहभागिभिः समं यूरोपीय संघेन यूनाइटेड किंगडम इत्यनेन च साकमपि एतादृश्यैव चर्चा चलायमानास्तीति। भारतेन अग्रे योजितं यत् संयुक्त राज्य अमेरिका देशेन सह चलायमानां चर्चामपि अस्मिन्नेव परिप्रेक्ष्ये द्रष्टव्यमिति। प्रधानमन्त्रिणा मोदिना अमेरिकायाः राष्ट्रपतिना डोनाल्ड ट्रम्पेन च विषयेऽस्मिन् निर्णयाय वरिष्ठाधिकारिणां दलमेकं संघटनाय सहमतिः प्रदत्तास्ति। भारतीय ऋतुविज्ञान विभागेन उपहिमालयीय पश्चिम बंगक्षेत्रे कतिपय स्थानेषु प्रभाविस्फोटादिभिः समं वर्षायाः सम्भावना व्यक्तीकृता अस्ति। विभागानुसारं अग्रिम पञ्चदिवसावधौ जम्मू कश्मीर लद्दाख गिलगित बल्तिस्तान मुजफ्फराबाद हिमाचल प्रदेश उत्तराखण्डेषु च निम्नतः मध्यमस्तरीयायाः वर्षायाः अनन्तरं हिमपातस्यापि सम्भावना अस्तीति। ऋतुविज्ञान विभागेन अग्रिम दिनत्रयावधौ कोंकण गोवा सौराष्ट्र कच्छ क्षेत्रेषु च तीव्रोष्णतायाः अनुमानम् अनुमितमस्ति। अपि च क्रीडावार्तासु क्रिकेट क्रीडायाः पुरुषाणाम् आईसीसी चैम्पियंस ट्रॉफी इत्याख्यायां स्पर्धायां निर्णायके अन्तिमे च द्वन्द्वे भारतस्य साम्मुख्यं न्यूजीलैण्ड देशेन सह भविष्यति। एतावत्पर्यन्तं भारतीय दलं अपराजित्वेनैव अन्तिम सोपानं यावत् समागतमस्ति। भारतीय दलस्य नायकत्वं च करोति रोहित शर्मा, उपनायकश्च अस्ति शुभमन गिलः इति वार्ताः।